गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिदेवते धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयुष शिवतमा शिवम् बभूवते धनुः शिवाचरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुभाषन्दमया गिरिशन्ताभिचाकशीः या विशुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु मामिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसि यता नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेजश्च सर्वाञ्जम् वयम् सर्वास्य यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रिता सहस्रशो वैशागुम् हेण इमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वारोहम् तेभ्यो करणमः प्रमञ्च धन्वनस्त्वमुभयोराग्नियोज्याम् यास्य देहस्त इषव पराता भगवो वप अवतत्यधनुस्वगुम् सहस्राक्षशतेषु धे निशेयशल्यानामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो पाणवागुम् उता अनेशन्नस्येशव आहुलस्य निषङ्गतिः या तेर्मीदुष्टवहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णरे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नभो हिरण्यवाहवेशेनाग्ने दिशाम् शपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः तस्मिन् जराय त्विषीमते पतीनाम् पतये नमो नमो बभ्लुषाय व्यव्याधिनेनाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्रायादकाविनि क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्सवीताय धावते सत्वनाम् पतये नमः नमः सावानाय निर्व्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्तेनाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेदवे परिजलायारण्यानाम् पतये नमो नमः सृगाविभ्यो जृगांसभ्यो मुष्णताम् पतये नमो नमो शिवभ्यो रक्तम् चलभ्यप्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सवाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विवेद्यन्तेभ्यश्च वो नमो नम उग्राव्यस्त्रिगुम् हदेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदेभ्यश्च वो नमो नमः सेनाभ्यस्येनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकालेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मालेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः namo bhavaya cha rudraya cha namah sarvaya cha pashupataye cha namo nilagrivaya cha shitrikanthaya cha namah kapartine cha yuktakeshaya cha namah sahasrakshaya cha shatadhanvane cha namo గిరిషాయ చ శిపివిష్టాయ చ నమో మీరుష్టవాయ జేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవత్వరే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమ ఆశవే చాచిరాయ చ నమ శీక్రియాయ చ శీప్యాయ చ నమ ఊర్ధ్యాయ చ వస్వన్యాయ చ నమ శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమ ఊర్ధ్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమ సోప్యాయ చ ప్రతిసద్యాయ చ నమోయామ్యాయ చ క్షేమ్యాయ చ నమ ఉత్పర్యాయ చ ఖల్యాయ చ నమ శ్లోక్యాయ చ అవసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమ శ్రవాయ చ ప్రతిశ్రవాయ చ నమ ఆశుషేణాయ చాశురతాయ చ నమ శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూతినే చ నమో భిల్మినే చ కవచినే చ నమ శ్రుతాయ చ శ్రుతసేనాయ చ నమో దందుభ్యాయ చ అనన్యాయ చ నమో కృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తీక్ష్ణేశవే చాయుధినే చ నమ
స్వాయుధాయ
చ సుధన్వనే చ నమ శ్రుత్యాయ చ పత్యాయ చ నమ కాక్యాయ చ నీత్యాయ చ నమ సూర్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమ కోప్యాయ చ భట్ట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమ ఇంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంతే సహనీయతే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమ శంభవే చ మయోభవే చ నమ శంకరాయ చ మయస్కరాయ చ నమ శివాయ చ శివతరాయ చ నమ శేత్యాయ చ గోల్యాయ చ నమ వార్యాయ చ భార్యాయ చ నమ వతరణాయ చోత్తరణాయ చ నమ ఆదాయ చ లాగ్యాయ చ నమ షష్ప్యాయ చ భేన్యాయ చ నమ స్నిగత్యాయ చ ప్రవాహ్యాయ చ నమ ఇలిన్యాయ చ ప్రభత్యాయ చ నమ కిగుంశిలాయ చ క్షయణాయ చ నమ కపర్తినే చ పులస్తయే చ నమో గోస్యాయ చ గృహ్యాయ చ నమ సల్ప్యాయ చ గేహ్యాయ చ నమ काट्याय च परेष्टाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्याय च सूर्याय च नमः पर्याय च पर्णशक्त्याय च नमो पगुरबाणाय च विघ्नते च नमः आखिलते च प्रखिलते च नमो वक्किलिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आनीवक्केभ्यः द्रापे अन्धतत्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मारोमो येषाम् किञ्चनाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजेतया नो मृडजीवते इमागुम् रुद्राय तवसे कपर्तिने क्षयस्वेलाय प्रमरामहे मतिम् यता नश्रमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुरम् मृडालो रुद्रोदनो मयस्कृति क्षयस्वेलाय नमसा विदेवते यच्चङ्कयोश्च मनुरायजे पिता ददश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विदेवते आराते गो न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षाजनो अधिश देव रोजदा जनश्चर्म यच्छत्रिबर्हाः सुहृश्रुतम् दत्त सदञ्जुवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अञ्जन्ते आत्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्विणक्तु परिक्वेशस्य दुर्मतिरगायोः अवस्थिरा मगवद्भ्यस्तनुष्वमेव लोकाय तदयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निदाय कृत्यम् वसान आचरपिनाकम् बिभ्रदागहे विगिरिलविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोर्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुकाकृते सहस्राणि सहस्रशो ये रुद्रा अलिभूम्या देशागुम् सहस्रयो जदेव धन्वानि तन्मसे अस्मिन्महत्यर्णवे नरिक्षे भवा अदि नीलग्रीवाशितिकण्ठा सर्वा अदः क्षवा जराः नीलग्रीवाशितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकपर्दिनः ये अन्येषु विभद्यन्ति पात्रेषु विभतो जनान् ಯೇ ಪದಾಂ ಬಲಿರಕ್ಷಯ ಐಲಭೃತಾಯ ವ್ಯುದಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚಲಂತಿ ಶುಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋ ಜನೇ ವಧನ್ವಾನಿ ಜನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂದರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾ ಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಶೀರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಶೀರ್ದಶೋ ದೇಶೀರ್ದಶೋ ದ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ತೇಯಂ ವಿಶ್ವೋ ಯಶ್ಚ ನೋ ವೇಷಿತಂ ಭೋಜಂ ಮೇ ದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋನ್ಮುಕ್ಷೀಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಆಜ್ಞಯೋ ಅಪ್ಸು ಯ ಔಷಧೀಶು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾಧಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಾಶ್ರವಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋನ್ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ನೃತ್ಯವೇ ಸ್ವಾಹಾ ನೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯ ಸ್ವಾ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿಯಸ್ವಿಷಸ್ಸುಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇತೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋ ಯದು ಶಿವಾಭಿವರ್ಷಣಃ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅಜ್ಞಾ ವಿಷ್ಣು ಸಜೋಷ ಸೇವಾವದ್ರಂತು ವಾಂಗಿರಃ ಯುಮ್ನೈ ವಾಜೇಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಹಾದೇತಂ ಚ ಮೇ ವಾಕ್ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮ ಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಗಾರಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಸಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜೈಷ್ಯಂ ಚ ಮಹಾಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾವಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇ ಮೃಶ್ಚ ಮೇ ಧೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ಪರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವಶ್ಮಾ ಚ ಮೇ ಪ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ತ್ವಿಷಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾಣಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪತಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ
భద్రం చ మే
శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిశ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీలం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే రామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే ఓక్ష మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సఖ్యశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మాభిత్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మేనం చ మే స్వచ్చ మే దేహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ఉద్గాశ్చ మే కల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అశ్వాశ్చ మే మృత్తికాశ్చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే సీసం చ మే త్రపశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే విరుధశ్చ మఔషధయశ్చ మే కృష్టపచ్చం చ మే కృష్టపచ్చం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్ధశ్చ మ ఏవశ్చ మ ఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే ష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే
ద్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే ఆగుంశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మే త్రిపతిశ్చ మౌపాగు స్వశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతగ్రహాశ్చ మే తిగ్రాహ్యాశ్చ మ ఐంద్రాగ్రశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే
सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदिश्च मे दृष्टयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च महुपरवाश्च मे ऋषभणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृच्च म आदवनीयश्च म आग्नेयम् च मे हविद्दानम् च मे गृहाश्च मे सरश्च मे पुरोडाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे चत्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पम् धामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो दृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही च मे पष्टवाच्च मे पष्टौही च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नट्वाञ्च मे धेनुश्च म आयु यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता दुःश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् यज्ञेन कल्पतामात्मायज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसदिश्च मे त्रयो विगुंसदिश्च मे पञ्चविगुंसदिश्च मे सप्तविगुंसदिश्च मे नवविगुंसदिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंसदिश्च मे चतुर्विगुंसदिश्च मे अष्टाविगुंसदिश्च मे त्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यष्टयश्चान्द्यायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनोर्यज्ञने बृहस्पतिरुक्ता वदानि शगुंसिषत्विश्वे देवा कोट्टवाच प्रतिविवा धर्मा वायुगुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगु शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाय पितरो नु वदन्तु ॐ शान्ति शान्ति शान्ति। विद्महे रात्रियज्ञाय रात्रियज्ञपतये दैवे स्वस्तिरस्त्वनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु त्रिपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स्वभूमिम् विश्वतो कृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदवम् सर्वम् यद्भूतयच्च भव्यम् हृतामृतत्वत्तेषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायानुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोद्वौदयपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्मयित्मः शरद्रविः सप्तास्यासन् परिदयः त्रिसप्त समिदकृताः देवायज्ञज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तन्यज्ञम् महर्षि प्रोक्षण्य पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोस्तादश्चक्रे वायव्यान आरण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेशो भयादतः कामोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कलिलाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यकृतः पूरो तदस्य यद्वैष्यः पद्भ्यागुम् शूत्रो अजायत चन्द्रवामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य देनः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्तात्यमुदाजहार शक्रप्रविद्वान् प्रतिशश्च तः सः ಸಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯ ಪಂಥ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇ ಹಲಾಕಂ ಮಹಿಮಾನಃ ಸಜಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾ ಸಂತಿ ದೇವಾ ಅಭ್ಯಃ ಸಂಬೋಧ ಪೃಥಿವ್ಯೈರಸಾಶ ವಿಶ್ವಕರ್ಮಣಃ ಸಮವರ್ತತಾದೇ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಜಾನಮಗ್ರೇ ವೇದಾಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೇಯನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಜಾಯ ಬ್ರಾಹ್ಮಣೇ ಋಜಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾ ತಸ್ಯ ದೇವಾ ಅಸನ್ವಶೇ ಈಶತೆ ಲಕ್ಷ್ಮೀಶ್ಯ ಪತ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾತಂ ಇಷ್ಟಂ ಮನಿಷಾಣಾ ಅಮಂ ಮನಿಷಾಣಾ ಸರ್ವಂ ಮನಿಷಾಣಾ ತಚ್ಚೈಯೋರಾವೃಣೀಮಹೇ ದಾತೈ ಯಜ್ಞಾಯ ದಾತೈ ಯಜ್ಞಪತಯೇ ದೈವೀ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ತ್ರಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇ ಹನ್ನೇ ಕರ್ಣೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋ ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೇನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗಸ್ತಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾ ಅಥೋ ಆಶಾದಿಕಾ ಹತಾ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾ ಆಹರಾವದ್ಯ ಸುತಸ್ಯ ವಿಶೋ ಯತಾ ತತ್ಸತ್ಯಂ ಯದಮುಯ್ಯಮಸ್ಯ ಜಂಭಯೋ ಆದಧಾಮಿ ತಥಾ ಹಿ ತತ್ ಖನ್ಫನ್ವಸಿ ಶಾಂತಿ 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 ಓಂ ಭದ್ರಂ ಕರ್ಣೇಭಿಃ ಶೃಣುಯಾಮ ದೇವಾಃ ಭದ್ರಂ ಪಶ್ಯೇ ರಾಕ್ಷಭಿರ್ಯಜತ್ರಾಃ ಸ್ಥಿರೈರಂಗೈಃ ಸುಷ್ಟು ವಾಗುಂತಸ್ತನೋಭಿಃ ಯಶೇಮ ದೇವಹಿತಯ್ಯದಾಯುಃ ಸ್ವಸ್ತಿ ನ ಇಂದ್ರೋ ವೃದ್ಧಶ್ರವಾಃ ಸ್ವಸ್ತಿ ನಃ ಪೂಷಾ ವಿಶ್ವವೇದಾಃ ಸ್ವಸ್ತಿರಸ್ತಾಕ್ಷೋ ಅರಿಷ್ಟದೇವಿಃ ಸ್ವಸ್ತಿ ನೋ ಬೃಹಸ್ಪತಿರ್ದದಾತು ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಸಮಸ್ತೆ ಗಣಪತಯೇ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ತತ್ವಮಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಕರ್ತಾಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಧರ್ತಾಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಹರ್ತಾಸಿ ತ್ವಮೇವ ಸರ್ವಂ ಖಲ್ವಿದಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಸಾಕ್ಷಾದಾತ್ಮಾಸಿ ನಿತ್ಯಂ ಋತಂ ವಚ್ಮಿ ಸತ್ಯಂ ವಚ್ಮಿ ಅವತ್ವಂ ಮಾಂ ಅವವಕ್ತಾರಂ ಅವಶ್ರೋತಾರಂ ಅವದಾತಾರಂ ಅವಧಾತಾರಂ ಅವಾನೋಜಾನಮವಶಿಷ್ಯಂ ಅವಪಶ್ಚಾತ್ತಾತ್ ಅವಪುರಸ್ತಾತ್ ಅವೋತ್ತರಾತ್ ಅವದಕ್ಷಿಣಾತ್ ಅವಚೋರ್ಧ್ವಾತ್ ಅವಾಧರಾತ್ ಸರ್ವತೋ ಮಾಂ ಪಾಹಿ ಪಾಹಿ ಸಮಂತಾತ್ ತ್ವಂ ವಾಗ್ಮಯಸ್ತ್ವಂ ಚಿನ್ಮಯಃ ತ್ವಮಾನಂದಮಯಸ್ತ್ವಂ ಬ್ರಹ್ಮಮಯಃ ತ್ವಂ ಸಚ್ಚಿದಾನಂದಾದ್ವಿತೀಯೋಸಿ ತ್ವಂ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಜ್ಞಾನಮಯೋ ವಿಜ್ಞಾನಮಯೋಸಿ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವತ್ತೋ ಜಾಯತೆ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವತ್ತಸ್ತಿಷ್ಠತೆ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವೈಲಯಮೇಶ್ಯತೆ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವಯಿ ಪ್ರತ್ಯೇತೆ ತ್ವಂ ಭೂಮಿರಾಪೋ ನರೋ ನಿಲೋ ನಭಃ ತ್ವಂ ಚತ್ವಾರಿ ವಾ ಪದಾರಿ ತ್ವಂ ಗುಣತ್ರಯಾತೀತಃ ತ್ವಂ ಅವಸ್ಥಾತ್ರಯಾತೀತಃ ತ್ವಂ ದೇಹತ್ರಯಾತೀತಃ ತ್ವಂ ಕಾಲತ್ರಯಾತೀತಃ ತ್ವಂ ಮೂಲಾಧಾರಸ್ಥಿತೋಸಿ ನಿತ್ಯಂ ತ್ವಂ ಶಕ್ತಿತ್ರಯಾತ್ಮಕಃ ತ್ವಾಂ ಯೋಗಿನೋಧ್ಯಾಯಂತಿ ನಿತ್ಯಂ ತ್ವಂ ಬ್ರಹ್ಮ ತ್ವಂ ವಿಷ್ಣುಸ್ತ್ವಂ ರುದ್ರಸ್ತ್ವಮಿಂದ್ರ ತ್ವಮಗ್ನಿಸ್ತ್ವಂ ವಾಯುಸ್ತ್ವಂ ಸೂರ್ಯಸ್ತ್ವಂ ಚಂದ್ರಮಾ ತ್ವಂ ಬ್ರಹ್ಮವೋರ್ಭುವಸ್ವರೋ ಗಣಾದಿಂ ಪೂರ್ವಮುಚ್ಚಾರ್ಯ ವರ್ಣಾದೀಸ್ತದನಂತರಂ ಅನುಸ್ವಾರ ಪರತರಃ ಅರ್ಧೇಂದುರಚಿತಂ ತಾರೇಣ ರುದ್ಧಂ ಏತತ್ತವ ಮನುಸ್ವರೂಪಂ ಗಕಾಲ ಪೂರ್ವರೂಪಂ ಅಕಾಲೋ ಮಧ್ಯಮ ರೂಪಂ ಅನುಸ್ವಾರಶ್ಚಾದ್ಯ ರೂಪಂ ಬಿಂದುರುತ್ತರ ರೂಪಂ ನಾದಸ್ಸಂಧಾನಂ ಸಗುಂಹಿತಾ ಸಂಧಿ ಸೈಷಾ ಗಣೇಶ ವಿದ್ಯಾ ಗಣಕ ಋಷಿ ನಿಷ್ಕೃತ್ಗಾಯತ್ರಿ ಛಂದಃ ಗಣಪತಿರ್ದೇವತಾ ಓಂ ನಂ ಗಣಪತಯೇ ನಮಃ ಏಕದಂತಾಯ ವಿದ್ಮಹೇ ವಕ್ರತುಂಡಾಯ ಧೀಮಹಿ ತನ್ನೋ ದಂದೇ ಪ್ರಚೋದಯಾತ್ ಏಕದಂತಂ ಚದುರ್ಹಸ್ತಂ ಪಾಶಮಂಕುಶಧಾರಿಣಂ ರದಂ ಚ ವರದಂ ಹಸ್ತೇ ವಿಪ್ರಾಣಂ ಮೂಷಕತ್ವಜಂ ರಕ್ತಂ ಲಂಬೋದರಂ ಶೂರ್ಪಕರ್ಣಕಂ ರಕ್ತವಾಸಸಂ ರಕ್ತಗಂಧಾನುಲಿಪ್ತಾಂಗಂ ರಕ್ತಪುಷ್ಪೈ ಸುಭೋಜಿತಂ ರಕ್ತಾನುಕಂಪಿನಂ ದೇವಂ ಜಗತ್ಕಾರಣಮಚ್ಯುತಂ ಆವಿರ್ಭೂತಂ ಚ ಸುಷ್ಟ್ಯಾದೌ ಪ್ರಕೃತೇ ಪುರುಷಾತ್ಪರಂ ಏವಂ ಧ್ಯಾಯತಿ ಯೋ ನಿತ್ಯಂ ಸ ಯೋಗೀ ಯೋಗಿನಾಂ ವರಃ ನಮೋ ಗಾತಪತಯೇ ನಮೋ ಗಣಪತಯೇ ನಮ ಪ್ರಮದಪತಯೇ ನಮಸ್ತೇ ಅಸ್ತು ಲಂಬೋದರಾಯೈಕದಂತಾಯ ವಿಘ್ನನಾಶಿನೇ ಶಿವಸುತಾಯ ವರದಮೂರ್ತಯೇ ನಮಃ ಏತದಧರ್ವಶೇಷಂ ಯೋ ಧೀತೇ ಸ ಬ್ರಹ್ಮಭೂಯಾಯ ಕಲ್ಪತೇ सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरते यानो रात्रकृतम् पापम् नाशयति सायम् प्रातः प्रयञ्जानो पापो पापो भवति सर्वत्राधीयानो पविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दते इदमतर्वशीर्षमशिष्यायन देयम् यो यदि मोहान् दास्यति स पापीयान् भवति सहस्रावर्तनाद्यम्यम् काममधीते तम् तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्भिः भवति चतुर्ग्यान्मनस्यम् जपति स विद्यावान् भवति इत्यतर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यान्न विभेदि कदाचनेति यो दूर्वान् गुरैर्यजति स वै श्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साधिसमिद्धिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणा सम्यग्राहयित्वा सूर्यवच्चस्वे भवति सूर्यक्रहे महालग्याम् प्रतिमासन्निधौ वाजत्वा सिद्धमन्त्रो भवति महाविग्रात् प्रमुच्यते महालोचात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेदा इत्युपनिषत् भद्रम् कर्णेभिः शृणुयामदेवा भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः विषेम देवहितैर्यदायुः स्वस्ति न इन्द्रो भृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु शान्ति शान्ति शान्तिः ॐ अग्निर्मेवाजश्रितः वाग्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि वायुर्ने प्राणे श्रितः प्राणो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषु श्रितः चक्षुर्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिताः शरीरगुम् हृदये हृदयम् मयि अहममृते
अमृतम् ब्रह्मणे ओषधि वनस्पतयो मे लोमसश्रिताः लोमानि हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणे इन्द्रो मे बले श्रितः बलगुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणे पर्जन्यो मे मूर्धश्रितः मूर्धा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणे ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणे आत्माम आत्मनि श्रितः आत्मा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणे पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमुदस्य गोपाः ओ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपते ब्रह्मणोऽधिपते ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पलगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरागतम् तद्विप्रासो विपन्यवो जाग्रवागुम् सस्यमिन्दते विष्णो यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् राजाधिराजाय प्रसंयसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् ध्यायेन मार्गेण महे महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति